जगद्धात्री नमस्तुभ्यं विष्णोश्च प्रियवल्लभे यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः नमस्तुलसि कल्याणी नमो विष्णुप्रिये शुभे नमो मोक्षप्रदे देवी नमः सम्पत्प्रदायिके तुलसी पातु मां नित्यम् सर्वपद्योऽपि सर्वगा कीर्तितापि स्मृतवापि पवित्रयति मानवम् नमामि शिरसा देवी तुलसीं विलसत्तनुम् यां दृष्ट्वा पापतो मर्त्यः मुच्यन्ते सर्वकिल्बिषात् तुलस्यारक्षितं सर्वम् जगदेतच्चराचरम् या विनिर्हन्ति पापानि दृष्टा वा पापिभिर्नरैः नमस्तुलस्यतितरां यस्यै दत्ता बलिः कलौ कलयन्ति सुखं सर्वम् स्त्रियो वश्यास्तता परे तुलस्यानापरं किञ्चित् दैवतं जगतीतले यया पवित्रितो लोको विष्णुसङ्केन वैष्णवैः तुलस्याः पल्लवं विष्णोः शिरस्यारोपितं कलौ आरोपयति सर्वाणि श्रेयांसि वरमस्तके तुलस्यां सकला देवा वसन्ति सततं यता अतस्तया च ये द्वोके सर्वान् देवान् समर्चयन् नमस्तुलसि सर्वज्ञे पुरुषोत्तमवल्लभे पाहि मां सर्वपापेभ्यः सर्वसम्पत्प्रदायिके इति स्तोत्रं पुरा गीतं पुण्डरीकेण धीमता विष्णुमर्चयतां नित्यम् शोभनैस्तुलसीदलैः तुलसी श्रीमहालक्ष्मी विद्या विद्या यशस्विनी धर्मा धर्मानना देवी देव देव मनःप्रिया लक्ष्मी प्रिय सखी देवी द्यौर्भूमिरचलाचला षोडशैतानि नामानि तुलस्या कीर्तये नरैः लभते सुतरां भक्तिम् मन्मथे विष्णुपदां भवेत् तुलसी भूर्महालक्ष्मीः पद्मिनी श्रीहरिप्रिया तुलसी श्रीसखि शुभे पापहारिणि पुण्यदे नमस्ते नारदनुते नारायण नमः प्रिये।